श्रीगुरुभ्यो नमः हरिः ॐ ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मंगलचंडिके यें क्रूं फट् स्वाहेत्येवं चाप्ये कविं शाक्षरो मनुः पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः दशलक्षजपेनैव मन्त्रसिद्धिभवेन्नृणां मन्त्रसिद्धिर्भवेत्यस्य स विष्णुः सर्वकामदः ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम् देवीं षोडशवर्षायां शश्वत्सुस्थिरयौवनां सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहरां श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभां वह्निशुद्धाङ्कुशाधानां रत्नभूषणभूषितां बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितं बिम्बोष्ठीं सुदतीं शुद्धां षटत्पद्मनिभाननां ईषद्धास्य प्रसन्नास्यां सुनीलोत्पललोचनां जगद्धात्री च दात्रीं च सर्वेभ्यः सर्वसंपदां संसारसागरे घोरे पोतरूपां वरां भजे देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने प्रयतः सङ्कटग्रस्तो येन तुष्टावशङ्करः रक्ष रक्ष जगन्मातर्देवी मङ्गलचण्डिके हारिके विपदाम्राशेर्हर्षमङ्गलकारिके हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले सदा मङ्गलदे देवी सर्वेषां मङ्गलालये पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते पूज्ये मङ्गलभूपन्यमनुवंशस्य सन्ततम् मङ्गलाधिष्ठता देवी मङ्गलानां च मङ्गले संसारमङ्गलाधारे मोक्षमङ्गलदायिनी सारे च मङ्गलाधारे पारे च सर्वकर्मणां प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकां प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः देव्याश्च मङ्गलस्तोत्रं यशृणोति समाहितः तन्मङ्गलं भवेच्चश्वन्न भवेत्तदमङ्गलम् इति मन्त्रध्यानसहितं मङ्गलचण्डिकास्तोत्रं सम्पूर्णम्।